अथ षोडशः पाठः। रामेण सीतया चायोध्यामीयते स्म। तत्र तु रामो जनैरुच्यते। पापगृहे सीतया चिरं कालमुष्यते स्म। तद् भवान् भार्याम् नगरात् निर्गमयतु। एवमस्मद् नगरम् श्रुति पुनर्भविष्यतीति। तत् श्रुत्वा रामेण महाविषादमगम्यत। तेन तु लक्ष्मणोदिश्यत। अद्याहम् सीताम् तित्यक्षामि। तत् त्वया सा वनमानीयतामिति।